विजयस्वदधन्नाथ विघातानां पराजयं कार्यस्य ते विघाताय मा भूदस्मासु किञ्चन मा भूत् विलम्बनं किञ्चित् प्रादुर्भावस्य वात्तव अपि सर्वेषु कालेषु तथा सर्वेषु वस्तुषु भूयात्कृतार्थो भगवान् संकल्पो जित्वरस्तव आदेह सूक्ष्मकुहरं आसमुत्तुङ्गभागतः अस्मदंशेषु सर्वेषु सर्वास्वस्मत्प्रवृत्तिषु इच्छाते पूरिता स्यात् इत्यास्महे सन्निधौ तव वर्ते मही समासक्ता कृष्णशो नित्यशत्वयी अनन्यवशगास्याम त्वत्प्रभावैकवर्तिनः परमादरमत्यन्तं कृतविज्ञतया त्वयी वर्तितुं विस्मृतिर्मा भूत् अस्माकं भो कदाचन अद्भुतान् अनुगृह्णासि यान् अर्थान् क्षणे क्षणे कदापि मा वृथा काश्मतान् वयं भगवन् विभो कार्ये ते सर्वमस्मासु सहकारी त्वयास्तु भो अस्तु सर्वं च सन्नद्धं साक्षात्कारकृते च ते वरेण्यसिद्धिकृन्नाथ विजयस्व जयोस्तु ते अनन्यवृत्तिम् अक्षोभ्याम् उज्ज्वलां व्यवसायिनी प्रतिपादयतां श्रद्धां अस्मभ्यं विजये तव प्रतिपादयतां श्रद्धां अस्मभ्यं